अमरकोशस्य वैशिष्ट्यं कथयन् एका कथयन्ति एका उक्तिः संस्कृतभाषायाम्, अमरसिंहो हि पापीयान् सर्वं भाष्यमचूचरत् इति ज्येष्ठानामुक्तिः। अत्र किमर्थम् अमरसिंहं पापीयान् इति कथयन्ति नाम, अयम् इयं निन्दारूपस्तुतिरेव। नाम यद्भाष्यं भगवता पतञ्जलिना कृतं केवलं प्राज्ञैः एव अवगम्यते, तद्भाष्यसाम्प्रदायान् अमरकोशः नामलिङ्गानुशासने अनुसृतवान् इति धिया सः अमरसिंहो हि पापीयान् सर्वं भाष्यमचूचरत् इति उक्तिः अस्ति। अत एव उच्यते यत् अष्टाध्यायी जगन्माता, अमरकोशो जगत्पिता इति। धन्यवादः।